ईकारान्त पुल्लिङ्ग शब्दोऽपि वर्तते।
सर्वत्र वदामः ईकारान्त दीर्घान्ताः सर्वे स्त्रीलिङ्गाः इति, किन्तु तत्र ईकारान्ते स्त्रीलिङ्गोऽपि वर्तते। पपी सखी सखा सखा एव इति पपी पपी पप्यौ पप्यः नदी नद्यो नद्या
इव
तस्य अर्थः सूर्यः। पपी इत्युक्ते सूर्य एवं
पुल्लिङ्गशब्दः।
अतः
शङ्खध्वा आकारान्त
शङ्खध्वा अधुना पञ्चमी भवति वा
चतुर्थी
चतुर्थी
रामाणि
चतुर्थी भवति एकवचनस्य प्रत्ययः
ज्ञे इति प्रत्ययः चतुर्थी भवति एकवचनस्य ज्ञे इति प्रत्ययः सौ च समौ षष्टाभ्यां भेस् ज्ञेभ्यां भेस् ज्ञेभ्यां भेस् अत्र सूत्रं ज्ञेयः अतोङ्गात्रस्य नेः यादेशः यकारादेशः नेः यः या इत्युक्ते यकारादेशः य इति अकारान्तस्य अङ्गस्य केवलम् अकारान्तस्य अत्र अङ्गस्य इति वदन्ति तत्रापि एकं सूत्रम् अपेक्षितमासीत् यस्मात् प्रत्ययविधिस्तदाधिप्रत्ययङ्गम् इति पूर्वं वर्तते यदा पदान्तस्य तेन निर्वाहः भवति इति मत्वा अस्माभिरपि एकसूत्रलाघौ पुत्रोत्सवं मन्यन्ते व्याकरणाभ्यासिनः इति मत्वा तदपि लिखन्तु आवश्यकता अनुभवन्ति चेत् यस्मात् प्रत्ययविधिः तदादि प्रत्यये अङ्गम् विधिः यस्मात् प्रत्ययविधिः तदादि विधिस्तदादिस्तद् तदादि प्रत्ययङ्गम् यस्मात् प्रत्ययविधिः तदादि तदादि प्रत्यये अङ्गं प्रत्ययङ्गम् तस्य अर्थः कोऽपि प्रत्ययः यत्र कुत्रापि विधीयते तस्य पूर्वे स्थितः यः शब्दः वर्तते तस्य शब्दस्य अन्त्यभागस्य अङ्गमिति संज्ञा भवति यस्मात् प्रत्ययविधिः तदादि तस्य प्रत्ययस्य आदौ स्थितस्य तदादि इत्युक्ते तस्य प्रत्ययस्य आदौ स्थितः यः वर्तते तस्य अङ्ग इति संज्ञा, अङ्ग इति नामधेयम्। रामाङ्गे इति वर्तते,
ङे इति प्रत्ययः विधीयते, तस्य पूर्वे आदि, तस्य आदिभागे राम इति अत्र वर्तते, तत्र अस्य तस्य पूर्वभागे राम इति अन्त्ये, रामशब्दस्य अन्त्ये
तस्य अङ्गम् इति नामधेयं भवति, अङ्गसंज्ञा।
एतत् सर्वेषु न तु एतत् विभक्तिः प्रथमविभक्तिः
सर्वत्र, सर्वत्रापि अङ्गसंज्ञा केवलं विभक्तौ इत्येव न, अग्रेपि
यत्र
तत्र अङ्गसंज्ञा अङ्गस्य इत्येव अतः एव लिखितं, तस्य अन्त्यभागः, अन्त्यभागे यः अक्षरः वर्तते सः अङ्गसंज्ञां लभते। यत्र प्रत्ययविधिः केवलं तत्र अपेक्षितं प्रत्ययविधानं, अन्यत्र न। यस्मात् प्रत्ययविधिः, यत्र कोऽपि प्रत्ययः विधीयते तत्रैव तस्य पूर्वभागे स्थितस्य तस्य आदिभागे स्थितः, आदिभागे राम इति रामा इत्यादि सर्वे वर्तन्ते, किन्तु तस्य अन्त्यभागे स्थितः यः वर्तते सः।
उदाहरणार्थं किं भवति
राम इति, तत्र राम इत्यत्र अकारः वर्तते, तस्य ङे इति प्रत्ययः रामशब्दस्य उपरि विधीयते, ङे प्रत्ययस्य आदिभागे स्थितः अकारः अङ्गसंज्ञां लभते। न न, अङ्ग इति नामधेयम्, अङ्गस्य किं भवति इत्युक्ते ङेर्यः, ङेर्यः ङेर्यः इति अङ्गात् परस्य ङेः, ङेर्यः अङ्गात् परस्य ङेः, अङ्गात्
प्रत्ययविधानेन यदा अत्र अङ्गसंज्ञा आगता तस्य अग्रे स्थितः
यः चतुर्थी विभक्तिप्रत्ययः ङे वर्तते सः यः भवति, यः भवति।
तर्हि ङेर्यः इत्यस्य
विस्तारेण
अङ्गात् परस्य
अतोङ्गस्य अकारान्तादङ्गात् परस्य अकारान्तात् अङ्गात् परस्य ङे विभक्तिप्रत्ययस्य यकारः भवति, अकारान्तात् अङ्गात् परस्य ङे प्रत्ययस्य यकारादेशः भवति, यकारादेशः भवति,
अतः ङे इत्यस्य य
रामय
राम य इति स्थिते।
रामशब्दस्य दीर्घः कथं पूर्वं कृतं वा, सुपि च, सुपि च,
सुपिचासूत्रः, तत्रापि अन्यशब्दाः वर्तन्ते, अस्माभिः ह्यस्तनदिने एव अङ्गशब्दस्य तस्य पदार्थस्य अङ्गस्य सर्वत्र एकस्य एव स्थानत्वा उपेक्षा कृता। अधुना नेव्यः सुपि च, सुपि च इत्युक्ते तस्य अर्थः यञादौ प्रत्ययपदे अतोङ्गस्य दीर्घः, अकारान्तस्य दीर्घः, यदा यञ् आदि यवरट् लण् ञमणनं, ञमणनम् अत्रैव वर्तते खलु, ञ आगतः, न आगतः, ञे इत्यस्य नकारः वर्तते, नकारः तत्र आगतः। सुपि च इत्यस्य अर्थः लिखितं पश्यन्तु, ह्यस्तनदिने लिखितवान् वा, यञादौ यञ् आदि तत्र रामाभ्याम् इत्यत्र सुपि च वर्तते खलु, सुपि च इत्यस्य अर्थः
यन् आदि प्रत्यये परे अतोङ्गस्य दीर्घः अकारान्तस्य दीर्घः अत्रापि सुपि च प्रत्ययेन सुपि च दीर्घः तदा इक्वल् रामाय रामाय स्पष्टं वा रामाय
अत्र करपत्रे
करपत्रे सुपिच न लिखितं वा
दशकत्वे
तस्य आवश्यकता नास्ति
सुपिच लिखितमस्ति परन्तु तस्मात् पूर्वं
चतुर्थीयुक्तो सुपिच लिखितं वा अग्रिमपृष्ठे
परन्तु
तस्य ज्ञेयः इति दशकत्वे तस्य रूप आवश्यकता नास्ति अत्रापि नास्ति तादृशमेव किल अतः अत्रापि तस्य आवश्यकता ज्ञेः इत्येव
परन्तु ज्ञेः ये भवति अनन्तरम् एव या आगच्छति इति
लिखितं
तस्य आवश्यकता
नास्ति
न तथा तदा सूत्रस्य वैफल्यं स्यात् स्थानेवदादेशो अनुविदो इति आनेतव्यं भवति तस्य प्रवेशः अस्ति वा न वा इत्यादि प्रश्नः उद्भवति
साक्षात् रामनीतः
साक्षादेव ज्ञे उपरि एव एकारादेशे मध्ये किन्तेन तद्धेतोरेव तद्धेतुत्वे मध्ये किन्तेन इति शास्त्रप्रक्रिया तद्धेतोरेव तद्धेतुत्वे मध्ये किन्तेन मध्ये अस्य आगमनेन किं प्रयोजनं ज्ञेयः इति सूत्र एव उक्तं तस्य नकारस्य यकारो भवति इति तत्र लशकोत्तद्धिते तथा तस्य रूप इति आवश्यकता नास्ति
परन्तु तस्य प्राबल्यं प्रायः अधिकम् अतः एव
न न
यदि आगच्छति वा न
तत्र पर्यायः भवति पर्यायो नास्ति तत्र तस्य नास्ति तत्र सिद्धान्तकौमुदो वा तत्र न लिखितं वा तस्य करपत्रे सर्वत्र दोषः भवेत् रामाभ्यां यथा तृतीया विभक्ति द्विवचने तथैव राम प्लस् भ्यां सुपि च तत्रापि सुपि च एव स एव प्रत्ययः भ्यामेव प्रत्ययः सुपि च सुपि च सूत्रेण अतोङ्गस्य दीर्घः अकाराङ्गस्य दीर्घः अकाराङ्गस्य दीर्घः रामेभ्यः अधुना
यङ्
इति न
सुपि च तत्र दीर्घं भवति यदा यङ् एव किल
यञ्ज्युक्ते प्रत्याहारः कर्तव्यः तत्र यवर लण् अनुनासिकेषु प्रथमः तत्र सूत्रे अस्मत् अधुना लौकिकभाषायां सः द्वितीयः ञकारः द्वितीयः ङकारः ङणनम ङणनम किन्तु सूत्रे ञमङणनम्
वृद्धि आदिसुपि परे
रामेभ्यः राम इत्युक्ते राम 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 इत्यादि सर्वपाणामेकशेषविभक्तौ इत्यादि अनुसरणं कृत्यं गतं राम 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 इति त्रि वर्तते स्वरूपाणाम् एकशेष एकवृत्तो एकस्वरूपं शब्दस्वरूपम् इत्युक्ते तत्र एक एव अवशिष्यते
राम प्लस्
भिस्
रामाभ्यस् रामाभ्यस् अस्य एत्वं कर्तव्यं बहुवचने झल्ये तत्रैव वर्तते सूत्रं न लिप्यते बहुषु बहुवचनं तत्रापि सिद्धमेव पूर्वोत्र एव सिद्धं पूर्वोत्र असिद्धं न पूर्वोत्र सिद्धम् इति बहुषु बहुवचनम् अत्र प्रक्रियालेखनसन्दर्भे एतत् सर्वमपि एतत् सर्वमपि लिखितं लिखितव्यं यथा परीक्षायां यदि भवति तर्हि अर्थवदातृप्रत्ययः प्रातिपदिकं राम इति लिखित्वा बहुषु बहुवचनं राम 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 बहुषु बहुवचनं लेखनानन्तरं राम 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 इति लिखितव्यं प्रथमेव राम 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 इति लिखितुं कः आधारः तदा राम बहुषु बहुवचनम् इति लिखित्वा राम 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 इति सौज तदनन्तरं सौज न प्रत्ययः आगच्छति तदनन्तरं स्वरूपाणाम् एकशेष एकवक्तम् इति रामम् अवशिष्टं कृत्वा राम बेस् इति आनेतव्यं भवति बहुषु बहुवचनस्य एव अगत्यता वर्तते किन्तु ज्ञातमिति अधुना परित्यज्य अनगत्यमिति न बहुषु बहुवचनं सूत्रम् आवश्यकं तदनन्तरं बहुवचने झल्लि बहुवचने झल्लि जलादौ बहुवचने सुपि अतोङ्गस्य एकारः अतोङ्गस्य एकारः एकारः यदा झल् आदि बहुवचने सुपि बहुवचने प्रथमं स्वीकर्तव्यं सुपि सुबन्तप्रक्रियायां बहुवचनसन्दर्भे सुबन्तप्रक्रियायां सरलीकृत्य मया उच्यते सुप् विधाने इत्यपि वक्तुं शक्यते सुप् विधानावसरे बहुवचने झल् आदिप्रत्यये परे झल् झभ घटदश् हल् पर्यन्तं अत्र भ्यस् वर्तते खलु भय् भय् इति झल् वर्णे आपतति जभन् द्वितीय द्वितीयमेव अक्षरं जभन् इत्यत्र अतः द्वितीयम् अक्षरं भ अतः तत्र जलां बहुजने जले सूत्रस्य निर्वाहः अत्र भवति एकारः तस्य एकारः अङ्गस्य एकारः तत्र रामशब्दस्य रामे भ्यस् तदनन्तरं ससजुषोरुः ईक्वल् रामेभ्यः
सूत्रे किमपि प्रत्याहारः किमपि आगच्छति तस्य सप्तमी यदा
सूत्रमत्र
प्रारम्भे वर्तते खलु तस्माच्च
सप्तमी
अपि अस्ति मम मुखे एव वर्तते किन्तु अधुना अकस्मात्
तपरस्तत्कालस्य
न वर्तते तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मिन् निति निर्दिष्टे पूर्वस्य अत्रैव वर्तते न तस्मिन् निति निर्दिष्टे पूर्वस्य तस्मादित्युत्तरस्य तदपि वर्तते अत्रैव मार्गणं कर्तव्यं मनापि न प्राप्तम् अधुना स्मृतौ आगतः
अक्षन्ति
प्रकरणे तस्मिन् इति निर्दिष्टे द्वितीयं सूत्रम् इकोयणचित् अनन्तरं तस्मिन् इति निर्दिष्टे पूर्वस्य इति भवति तदनन्तरं तस्मात् इत्युत्तरस्य अत्र अत्रैव अग्रे
तत्र
तस्मिन् दिने चिन्तितं किल
झलि इति झलि झल् प्रत्ययस्य झल् शब्दस्य सप्तमी
झलि अल् सन्धि प्रकरणे वर्तते तद्दिने दर्शितं किल उदस्थास्तम्भौ पूर्वस्य अत्र आगन्तव्यं तस्मात् उत्तरस्य
पूर्वस्य सूत्रे यः शब्दः भवति तेन दातव्यं जलस्य पूर्वस्य वा जलस्य
चतुर्विंशतिपृष्ठे तस्मात् इत्युत्तरस्य पञ्चमी निर्देशेन क्रियमाणं कार्यं वर्णान्तरेण अव्यवहितस्य परस्य ज्ञेयम् अत्र पूर्वस्य बोध्यते तस्मिन् इति निर्दिष्टे पूर्वस्य इत्यादि अधुना रामेभ्यः इति कथमिति ज्ञातं वा यतो राम त्रिवर्तते स्वरूपाणाम् इति एकाय राम अवशिष्यते अनन्तरं भ्यस् वर्तते भ्यस् तथैव तिष्ठति तदनन्तरं बहुवचने झल्लि
रामेभ्यस् बहुवचने झल्येत् बहुवचने झल्येत् इति
तस्य अर्थः झलि प्रत्यये परे बहुवचने सुपि तत्र मुख्यं बहुवचने सुप् बहुवचने इति सुप्रत्ययेषु बहुवचने परे तदा एव तदा एव अतोङ्गस्य एत्वं भवति
अत्र सुपि किमर्थं तिङन्त
तिङन्ते पचेद्भ्याम् इति न भवेत् पचेध्वम् इति न भवेत् पचध्वम् इत्यत्र पचेध्वम् इति मा पचध्वम् इत्यत्रापि बहुवचनं वर्तते किन्तु न सुपि अतः पचेध्वम् इति मा भूत् पचध्वम् इत्यत्र पचेध्वम् इति मा भूत् इत्येव सुपि इति तत्र केवलं तिङन्ते एव न अन्यत्र सर्वत्रापि तस्य व्याप्तिः नास्ति केवलम् अत्रैव केवलम् अत्र अत्रैव लिखितं पुस्तके वर्तते सुपि किं पचध्वं तत्र लघुसिद्धान्तकौमुदौ लिखितं वर्तते अत्र सुपि किं पचध्वम् इति लिखितं
किमर्थं सुपि
सुपि इत्येव पृष्ठसङ्ख्या पञ्चत्रिंशत् पृष्ठे अत्र स्थानिवदादेशो न विविधौ इति
नामपदे एव एतत् सुपि इत्युक्ते
नामपदे
सुपि
दृष्टं वा दृष्टं वा तदनन्तरं
रामात् पुनः तस्य वावसाने इति चर्तुमपि ज्येष्ठं चर्तु
रामा प्लस् मृषि
नसि नसि
नसि इति षष्ठी भवति
नसि राम नसि तत्र काङ्गसिंहस्वामिना च पूर्वमागतं तत्र तृतीयसन्दर्भे काङ्गसिंहस्वामिनाख्याः सानसि आत् आगच्छति टाङ्गसिंहस्वामिनाख्याः इति सूत्रेण तत्र तृतीयाविभक्ति वर्तते तस्य अधुना आत् आगच्छति तदनन्तरं षष्ठीविभक्तौ स्य आगच्छति अधुना टाङ्गसिंहस्वामिनाथ इत्यस्य इत्यस्य आत् आत् सवर्णदीर्घः अतः सवर्णदीर्घ एव प्रथमेव पूर्वसुवर्णः अत्र नागच्छति तस्य प्रवेशः अत्र नास्ति तत्र रामाभ्यामे प्रथमाद्वितीयविभक्तिसन्दर्भे उक्तं किल रामाः तथा रामान् इत्यत्र प्रथमयोः पूर्वसुवर्णसूत्रम् आसीत् तस्य प्रवेशः अत्र न भवति सामान्यसन्धिस्वरूपेण अकस्सवर्णे दीर्घः
तर्हि साक्षात् एव खलु अत्र उपदेशे
अत्रापि कर्तुं शक्यते तत्तु प्रक्रियास्वरूपेण तद् वर्तते तथा सर्वत्रापि यथा कर्तव्यं टा इति वर्तते उपदेशे अन्नाशीति इति कर्तव्यं तस्य लोपः कर्तव्यः तदनन्तरं स्थानिवदादेशो अनल्विधौ इति सूत्रम् आगच्छति आदेश अस्थानिवत् स्यात् इति तत्र प्रथमे स्थिते स्थाने यः अक्षरः वर्तते तत् स्थाने आगतः अक्षरमपि तत्स्थान स्थानत्वमेव लभते इति तस्य अर्थः तत्प्रत्ययत्वमेव लभते इति तदनन्तरं कर्तव्यं द्रविडप्राणायामः इति वदति तस्य आवश्यकता नास्ति प्रक्रियां प्रदर्शयितुं कुत्रचित् एवं कुर्वन्ति किन्तु नेड्या इति सूत्रे स्पष्टतया उक्तत्वा तत्र तस्य किं उपदेशे अजुन्नासिके इति हलन्त्यम् इत्यस्य प्रवेशस्य आवश्यकता नास्ति कर्तव्यमिति न अधुना अकस्सवर्णे दीर्घ इति अधुना सामर्थ्यात् जलां झषन्ते पदान्ते जल झषस्युः पदान्ते स्थिताः जलवर्णः तत्र हल्सन्धिप्रकरणे वर्तते एतत् मुरारिः एतन्मुरारिः इत्यादि उदाहरणं दीयते खलु तत्र पदान्तस्य झल्वर्णस्य झष् स्यात् जपगडदश् जपगडदादेशसन्धि इति उच्यते एवं जलां झषन्ते सूत्रं जलां झषन्ते सूत्रेण रामात् तत्र रामात्
झल् इत्युक्ते झल्पूर्णं
रामात् रामादेव इत्येव स्थिते रामात् इति कथं तस्य आत् गतः अस्य तदर्थमेव अन्यत् सूत्रं कृत्वा वावसाने
అవసానే 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 జలాం చరః స్యుః అవసానే జలాం చరః స్యుః అవసానే స్థితాని అక్షరాణి ఇది అవసానే స్థీయంతే తరి తే జల్ వర్ణ చర్వర్ణ భవతి క చాపటతౌ కపై శషసర్ శషసర్ చర్ ఇత్యుక్తే చ తత్ర ప్రత్యారేణ ప్రత్యారేణ ఐవర్ణ్యమణం జబంజ్ గడదశ్ జభ గడదశ్ ఖ ఫ చఠత చటతౌ చటతౌ కపై శషసర్ చర్ చర్ యథా అగ్రే కర్కశవర్ణ ఇది ఉచ్యతే ఉచ్యతే తృతీయం చతుర్థం వర్ణం వా యదా ప్రథమ ప్రథమాక్షరం భవతి తదా చర్తుం ఇత్యుచ్యతే తృతీయం భవతి తత్ర జష్టుం ఇత్యుచ్యతే జల్లెపి ఇత్యపి వదంతి మహాప్రాణని గ్రహీత్వా
తరి వా అవసానే ఇతి
వికల్ప
విస్తర్స
వికల్ప వావసానే వికల్పేన పదాంతే జల్ వర్ణాః చర్ వర్ణాః అపి భవంతి తస్మాత్
మాదపి సమ్యక్
సమ్యక్ రామాదితి ఇత్యపి వక్తుం శక్యతే రామాదితి ఉత్తమ వక్తుం శక్యం యది అగ్రే చత్వాక్షరే స్థితే తత్ర జష్టుసంధి అవకాశే స్థితే వాక్యే ఇది రామాదితి ప్రయోగా క్రియతే అసాధు ఇది వక్తుం న శక్యం యథా వాక్యే తు సా వివక్షామపేక్షతే వక్తురిచ్ఛా తు వక్తురిచ్ఛా ఏవ సంధి కర్తవ్యా ఇత్యేవ న నియమః సంధి తత్ర సంహిత ఏకపదే నిత్య నిత్య ధాతూపసర్గయో నిత్య సమాసే వాక్యే తు సా వివక్షామ అపేక్షా నియమం జ్ఞాతం వా జ్ఞాతం జ్ఞాతం సంహిత ఏకపదే నిత్య సంహిత ఉదాహరణ కల్వాట కల్వాటో దివసేశ్వరేన తపిత వృక్షం గత ఇది వర్తత ఖలు తల్వాటశబ్ద ఖలు అట ఇది విభాగ కర్తవ్య ఖల్వాట ఇత్ర ఎణ్సంధి మత్వా ఖలు ఆట ఇది నే ఏకపదం ఖల్వాట ఇది ఏకపదం అద సంహిత ఏకపదే నిత్య నిత్య ధాతూపసర్గయో ధాతూపసర్గయోరపి నిత్య ప్రేధతే ప్ర ఏధతి సహ ప్ర ఏధతే ఇది స్టైల్ నకర్తవ్యం భవతి ప్రేధతే ఇదేవ ఉక్తవ్యం ప్ర యోజనం ఇత్యాది న ఉక్తవ్యం తస్య ప్ర యోజనం నాస్తి ఇత్యాది వక్తుం న శక్యతే యథా ఉపధాతూపసర్గయో నిత్యా నిత్యా సమాసే తథా సమస్తపదే సమస్తపదే అనేకాని పదాన్ని మిలిత్వా యదా సమాసః భవతి వీరపటపటలోత్కంగతురంగకుంజరమకరభీషణ సకలరిపుగణకటకజలనిధిమతనుమందరాయమాణ సముద్దండభుజదండః పురందరపురాంగణమనవేరణతరుణగణికాగణజయగీయమానయాతిమానయ శరదిందుకుందఘనసారనీహారహారమృణాలమరాలసురగజనీరక్షీరగిరిషాట్టాసకాశ నీకాశమూర్త్యా సునభితదిగంతరాలపూర్త్య దశమార్జనితో ప్రారంభమే వర్తతే వీరపటపటలోత్తంగతురంగకుంజర ఇది సమస్తపదం వీరపటపటలోత్తంగ ఇది పటల ఉత్తరంగా ఇది పదచ్చేదా కర్తవ్య ವೀರಭಟಭಟಲೋತ್ತಂಗತುರಂಗಪುಂಜರಮುಖರಭೂಷಣ ಸಕಲ ರಿಪುಗಣ ಕಟಕ ಜಲಂಜಿಸಿ ಮಾನಸಭುಜಂಡಃ ತತ್ರ ಕುತ್ರಾಪಿ ಪದಚ್ಛೇದ ನ ಕರ್ತವ್ಯ ಸಮಸ್ತ ಪದತ್ವ ನಿತ್ಯ ಸಮಾಸ ವಾಕ್ಯೇತು ಸಾ ವಿವಕ್ಷಾಂ ವಿವಕ್ಷ ಇತ್ಯುಕ್ತೆ ವಕ್ತುಃ ಇಚ್ಛಾ ವಾಕ್ಯಪ್ರಯೋಗ ಕರ್ತುಃ ಇಚ್ಛಾಂ ಅಪೇಕ್ಷತೆ ವಾಕ್ಯಪ್ರಯೋಗೇ ತು ಭವಾನ್ ಸಂಧಿಂ ಕುರು ಮಾ ಕುರು ವಾಕ್ಯೇಪಿ ಯದಿ ವಾಕ್ಯೇಪಿ ಉಪಸರ್ಗ ಧಾತು ಇತ್ಯಾದಿ ಛೇದಂ ಕೃತ್ವಾ ನ ಭವತಿ ಯದಿ ವಾಕ್ಯೇ ವ್ಯಸ್ತಾ ಶಬ್ದಾ ಭವಂತಿ ವ್ಯಸ್ತಾನಾಂ ಶಬ್ದಾನಾಂ ಸಂಧಿಂ ಕುರು ಮಾ ಕುರು ಏತತ್ ತವ ಇಚ್ಛಾ ಇಚ್ಛಾಧೀನಂ
ಅಥವಾ ರಾಮ ಗಚ್ಚತಿ
ರಾಮೋ ಗಚ್ಚತಿ ಇತ್ಯಾದಿ ರಾಮ ಗಚ್ಚತಿ ಇತ್ಯಪಿ ವಕ್ತುಂ ಶಕ್ಯ ರಾಮ ಗಚ್ಚತಿ ಇತ್ರ ವಿಸರ್ಗ ಸಂಧೇ ಅವಕಾಶ ವರ್ತತೆ ರಾಮೋ ಇತಿ ವಿಸರ್ಗ ಉತ್ಸಂಧಿ ಭವತಿ ತತ್ರ ವಿಸರ್ಗ ಸಂಧಿ ಕರ್ತವ್ಯ ಇತ್ಯೇವ ನ ರಾಮ ಗಚ್ಚತಿ ಇತ್ಯಪಿ ವದಂತು ರಾಮೋ ಗಚ್ಚತಿ ಇತ್ಯಪಿ ರಾಮೇಭ್ಯವಸಾನೆ ಅಥ ಜಲಾಂಶು ರಾಮಾತ್ ಅಥವಾ ರಾಮಾತ್ 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 ಸನ್ನಿವೇಶವಶಾತ್ ಜಲಾಂಶು ಪ್ರವೇಶಾತ್ ರಾಮಾತ್ ಇತ್ಯತ್ರ ತಕಾರಸ ದಕಾರಾದೇಶ ಜಲಾಂಶು ಸೂತ್ರೇಣ ಆಗತಂ ಪುನಃ ವಾವಸಾನೆ ಇತಿ ಸೂತ್ರೇಣ ಪುನಃ ಯಥಾಸ್ಥಾನಂ ಸುಜಾತಿ ಸಮತಾಂಗತಃ ಇತಿ ರಾಮಾದಿತ್ಯೇವ ಅಭವತ್ ಪೂರ್ವಸ್ಥಾನೆ ತಥಾ ತಿಷ್ಠ ಪುನಃ ಪೂರ್ವಸ್ಥಾನೆ ಅಪಿ ಸರಿ ಅತ್ರ ವಿಕಲ್ಪ ವಾವಸಾನೆ ಇತಿ ವಾ ಇತ್ಯೇವ ಪ್ರಾರ್ಥ ಸಾಮಾನ್ಯತಃ ಸೂತ್ರೇ ವಿಕಲ್ಪ ವಾ ಇತ್ಯಾದಿ ಬಹುಲಂ ಇತ್ಯಾದಿ ಪದವತ್ವಂ ಇದೆ ಭವತಿ ತದಾ ವಿಕಲ್ಪ ವಿಕಲ್ಪ ಚಾಯ್ಸ್ ಚಾಯ್ಸ್ ರಾಮಾತ್ ಇತಿ ವಾ ವದ ರಾಮಾತ್ ಇತಿ ವಾ ವದ
ಸ್ಪಷ್ಟತೆಯಾ
ವಿಕಲ್ಪ ನಿರ್ದೇಶ ಯದಿ ಕ್ರಿಯತೆ ತರಲ ಕಥಂ ಜ್ಞಾಯತೆ ಇತ್ಯುಕ್ತೆ ವಾ ವಿಕಲ್ಪ ಬಹುಳ ಇತ್ಯಾದಿ ಶಬ್ದ ತತ್ರ ಅಕ್ಷರಂ ತತ್ರ ವರ್ತತೆ ಇತಿ ವಿಕಲ್ಪ ಇತಿ ಕಥಂ ಅಸ್ಮಾಕಂ ಜ್ಞಾಯತೆ ಇತ್ಯುಕ್ತೆ ತತ್ರ ಪಶ್ಯತು ವಾ ಅವಸಾನೆ ವಾ ಅವಸಾನೆ ವಾ ಇತ್ಯೇವ ಸೂತ್ರೇ ವರ್ತತೆ ಅತಃ ವಿಕಲ್ಪ ಇತಿ
ಪುನಃ ಏಕವಾರಂ ವಾ ಅವಸಾನೆ ಸಂಪೂರ್ಣ ಮುಕ್ತಿ ವದದು ವಾ ಅವಸಾನೆ
ಅವಸಾನೆ ಅವಸಾನೆ ಅವಸಾನೆ ಇತ್ಯುಕ್ತೆ ಎಂಡ್ ಆಫ್ ದ ವರ್ಡ್ ಎಟ್ ದ ಎಂಡ್ ಆಫ್ ದ ವರ್ಡ್
ಅವಸಾನೆ
ವಾ ಅವಸಾನ ಶಬ್ದಸ್ಯ ವಿರಾಮ ಅವಸಾನಂ ಯತ್ರ ಶಬ್ದ ಸಮಾಪ್ಯ ತಿಷ್ಠತಿ ಅಗ್ರೆ ಕೋಪಿ ನಾಸ್ತಿ ತಸ್ಯ ಸಮಾಪ್ತಿ ಸಂದರ್ಭೆ ಇತ್ಯರ್ಥ ವಾ ಅವಸಾನೆ ಶಬ್ದಸ್ಯ ಅಂತ್ಯೇ ಅಂತ್ಯ ಭಾಗ ಇತಿ ನಾವು ಉಕ್ತವ್ಯ ಅಂತ್ಯ ಶಬ್ದಾಂತೆ 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 ಅವಸಾನ ಅವಸಾನ ಇತ್ಯುಕ್ತೆ ಝಲಾಂ ಯೇ ಝಲ್ ವರ್ಣಾಃ ತೇ ಚರ್ ಭವಂತಿ
ಝಲಾಂ ಚರ್ ಸ
ಝಬ ಗಡದಶ್ ಜಬ ಗಡದಶ್ ಖಪ ಚಡತ ಹಲ್ ಪರ್ಯಂತ ಝಬನ್ ಇತ್ಯತಃ ಹಲ್ ಪರ್ಯಂತ ಜಬರದಶ್ಯ ಅಪತತಿ ಚಲ್ ಅದಕ್ಕೂ ಚತುರ್ಥ ವರ್ಣಮಿ ಗೃಹ್ಯತೆ ಝಲ್ ವರ್ಣ ಪದಾಂತೆ ಸ್ಥಿತಾ ಝಲ್ ವರ್ಣ ಪದಾಂತತ್ವಾದೇವ ಚರ್ ಅಪಿ ಭವಂತಿ
ಅಪಿ
ಚರ್ ಅಪಿ ಅಥವಾ ವಿಕಲ್ಪೇನ ಚರ್ ಭವಂತಿ ಜಾತವಾ ರಾಮಾಭ್ಯಾಂ ರಾಮೇಭ್ಯಃ ಯಥಾ ಚತುರ್ಥಿ ವಿಭಕ್ತಿ ಕೃತೌ ರಾಮಾಭ್ಯಾಂ ರಾಮೇಭ್ಯಃ चतुर्थी विभक्ति बहुवचने पंचमी विभक्ति बहुवचने समान पुनः उत्तम
विवाह
षष्ठी राम पंचमी विभक्तौ नसि नसि नस है ना हाँ प्रत्येक द्वयम् अर्थ पंचमी विभक्तौ एक नसि षष्ठी विभक्त एक वचने नस नस पुनः टांगसि नसामि नाप्स्य राम अत्र प्रक्रिया एव नास्ति अतः रामस्य षष्ठी कल्पद्रुमः अतः तेयमपि मिलित्वा उक्त्वा स्याः इति बहुवचने वर्तते नसि आत् भवति षष्ठी षष्ठी टाङ्गसि नसां टाङ् नसि नस् प्रत्ययानां क्रमेण टा इन 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 सम्पूर्ण इन लिखितु इना इति न इन इन समृतं समृतम् समृतः समृतः अक्षरः अत्र सर्वत्र प्रक्रियादशायां तु संवृतमेव संवृतं विवृतमिति अकारस्य रूपद्वयम् उक्तम् अत्र अत्र सर्वत्रापि आ इति वक्तव्यम् अ अ इत्येव
तत्र अत्र
अत् इति उच्यते खलु आत् इति उच्यते आत् गुणः सवर्णदीर्घत्वात् सागरेव आत् इत्येव तत्र भवति तत्र लेखनं सर्वत्रापि एवमेव रामारामः इत्युक्ते रामः आरामः इत्यपि भवति राम आरामः इत्यपि भवति रामस्य आरामः रामारामः एवमेव तत्र किं कर्तुं शक्यते सन्दर्भवशेनैव तस्य सन्दर्भमपेक्षते रामारामः इत्युक्ते तत्र राम राम इत्यपि भवति तत्र तदेव अद्यत्वे तत्र अवग्रहचिह्नम् अवग्रहचिह्नम् अवग्रहचिह्नं निक्षिप्यते क्वचित् सूत्रे एवं क्रियते क्वचित् न मया पठनावसरे विद्यार्थिनां अवग्रहचिह्ना इति स्मरणेन तिष्ठति इति तस्य विस्मार्कस्य अनुजः एकः अस्ति यस्मार्कः यस्मार्कं निवेश्यताम् अयं विस्मार्कस्य अनुजः
चतुर्थे तेषां स्मरणं वर्तते यस्मार्कस्य अनुजः विस्मार्कस्य अनुजः यस्मार्कः तद् व्याकरणस्य पाठः वैनोदिकतया न सिद्ध्यति अद्यत्वे रामस्य रामयोः इति भवितव्यम्
రామ ఓస్
అదనా ఓసి సూత్రం
ఓసి
కర్ణాటకే తో వర్తతే అన్యత వర్తతే వా నవ ఓసి ఇస్
బాహుల్య
ఓసి చ ఓపెనింగ్ ఓసి
గ్యాంబ్లింగ్ మనక పోతు బాట
ఓసి
గ్యాంబ్లింగ్
నా
ఓసి గ్యాంబ్లింగ్ నిశుల్కం బ్రదర్ రిసీవ్డ్ అవే వత్ దత్తనే కునైల
పిపి వది ఓసి ఓపెన్ క్లోజ్ మటకాయ ఓసి ఓసి అంటాను
ఓసి ఓసి మటకాయ మటకాయ ఓసి
ఓసి
ఓపెనింగ్ క్లోజ్
ఓసి
ఓసి
ఓసి అంటాను
ఓసి వర్తతే వాణిజ్య చిత్రీకరణే చ చిత్రీకరణే చ ఇత్యేవ సూత్రం చిత్రీకరణే చ ఇత్యేవ సూత్రం చిత్రీకరణే చ సూత్రం వర్తతే
ఓసి చ
ఓసి చిత్రీకరణే చ దార్తాన్య ఓసి చ ఓస్ ఓసి పరే ఓస్ ప్రత్యయ పరే కేవలం ఓస్ ఓసస్ ఓస్ ప్రత్యయ పరే ఓస్ ప్రత్యయ పరే తదా అకారాంతస్య అంగస్య ఏకార అకారాంతస్య అంగస్య ఏకార ఏకార బహువచనే
అనంతరం
సూత్రే వర్త రామ అచిపరే ఏ చూర్ణానాం పురతః అచ్చుపరే స్వరే పరే క్రమేణ ఏకార ఐ భవతి ఓకార ఔ భవతి ఐకార ఆయ్ భవతి ఔకార ఆవ్ భవతి ఇది తత్ర స్వరసంధి స్వరసంధి ప్రకరణ అచ్చంధి ప్రకరణే వర్తతే స్వరసంధి ప్రకరణే వర్తతే ఏచో యవాయావ ఇది సూత్రం కేవలం ఏచో ఇత్యేవ లిఖితం రామయ్య
ರಾಮಯೋಸ್
ರಾಮಯೋಸ್ ರಾಮೇ ಓಸ್ ರಾಮೇ ಏಚುಯವಾಯ ರಾಮೈ ರಾಮೈ ಪ್ಲಸ್ ಓಸ್ ರಾಮಯೋಸ್ ರಾಮಯೋಸ್ ಮಧ್ಯೆ ಅರ್ಥಾತ್ ತಸ್ಯ ಪೂರ್ವಭಾಗೆ नुडागमः भवति नुट् इत्यत्र कथं नकारः अवशिष्यते उट् उपदेशयजुनास्कैत् हलन्त्यं सूत्रेण नुट् इत्यत्र उट् उट् जातः
द्वयमपि
वर्तते उकारस्यापि टकारस्यापि टकारस्य हलन्त्यम् उकारस्य उपदेशे अजुनासिक इति मात्रम् अवशिष्यते नकारस्य आगमः अत्र आगमिष्यति नु इति नु प्लस् आम् नाम राम राम नाम राम नाम सत्य एव अत्र दीर्घः भवितव्यं खलु कथां सुपि च
सुपि चीर्घः
अत्र न लिखितो वा
तत्र तु
सुपि च न प्रवेश नामि इति सूत्रं हलन्त्यं तस्य रूपात् अद्यन्तो उटकितो अद्यन्तौ टकितो विनुट् अत्र ककारस्य हलन्त्यम् इति तस्य लोभः आद्यन्तौ आद्यन्तावयो आद्यन्तौ टकितो इत्यपि अत्र ग्रहीतव्यं यतः नुट् कुत्र आगच्छति कुत्र नुट् इत्यत्र टकारः वर्तते अस्तु तदर्थं तत् सूत्रम् आद्यन्तौ टकितौ टकारस्य यदि संज्ञा भवति तस्य आदिभागे ककारस्य यदि संज्ञा भवति फक् इति वर्तते तत्र फक् इति कोऽपि आदेशः अथवा आगमः भवति तदा क इति संज्ञां लभ्यते तत्र अन्त्यभागे अत्र अस्य आम् इत्यस्य आदिभागे इति दर्शयितुम् एतत् सूत्रम् साधु
पुनः वदतु तत्र आद्यन्तौ टकितौ आदिभागे यदट् भवति अन्त्यभागे यदा भवति तदा द्वौपि इतौ किल इति सम्यक्
यः आगमार्थं यः प्रत्ययः वर्तते तस्य प्रत्ययस्य अग्रे यदि टकारः वर्तते तत् पूर्वे आगच्छति तस्य प्रत्ययस्य ककारः अन्त्ये यदि ककारः भवति तस्य निर्दिष्टस्थलस्य अन्त्ये आगच्छति अत्र नुट् इति वर्तते नुट् इत्यत्र आद्यन्तौ टकितौ टित् कितौ यस्योक्तौ तस्य आद्यन्तावयौ स्तः अत्र तस्य अर्थं वर्तते टित् कितौ यस्योक्तौ तस्य आद्यन्तावयवौ स्तः तत्र पूर्वं हल्सन्धिप्रकरणे आगच्छति टकारः अस्ति अतः आमित्यस्य पूर्वमध्ये इत्युक्ते आमित्यस्य पूर्वं अङ्गस्य उत्तरभागे यथा अङ्गस्य इत्यपि उक्तं खलु
यदि ककारः अस्ति चेत्
आमस्य अग्रे
आगच्छति
आमन्न
आम् न तत्र प्रत्ययः
ककारः
भवितव्यस्थले यदि नुक् स्यात् तर्हि आम् अनन्तरं नुक्
नुट् इति वर्तते खलु यदि कस्मात् नुक् इति भवेत् तर्हि अत्र आगच्छति
आम् अनन्तरम्
आम् नुक्
इति भवति किन्तु नुट् नुट् किमपि टकारः
नुट् इत्यत्र टकारस्य इत्संज्ञा भवति अतः अत्र आगच्छति इति मध्ये तेपि मया उक्तम् अङ्गस्य इति तत्र उक्तं खलु अतः अङ्गस्य अनन्तरम् आकारस्य समीपे यदा मित्रोदाः कृत्वा आकारस्य हानिः न भवति न इति आकारे सम्मिलितः भवति नाम् इति भवति
नामी इति सूत्र भिन्नं रामानां
नाम रामानां
यदा भवान् उक्तवान् आद्यन्तौ टकितौ तत्र आद्यन्तौ टकितौ टक् इतौ
तितौ कितौ अल इतौ इति द्विवचनं टित् कित् यदि आगम टित् भवति आद्यवयवे कित् भवति अन्त्यवयवे पुनः एवं करि अधुनैव अधुना जातं वा तत्र लिखितं टित्कितौ यस्योक्तौ तस्य आद्यन्तावयवौ स्तः इति आद्यन्तौ टकितौ
टक एतौ द्वौ इतौ अधः टकितौ इत् इतौ इतः अतः द्वौ द्वौ खलु द्वौ इत् संज्ञा अतः इत् इतौ इतः टक एतादौ एतौ एतौ द्वौ इतौ इत् इतौ इतः
टित्कितौ यस्योक्तौ तस्य अचोन्त्यादिति अचामध्ये च आदि अन्यत् तदपि एकं वर्तते अचोन्त्यादिति
षट्सन्तः तत्र उदाहरणं दत्तं षट्सन्तः इति
षट्सन्तः अदय अलन्तसन्तः तत्रैव भवेत् तत्र वर्तते वा
पुटसंज्ञक
आद्यन्तौ टकितौ न परेण सूत्रानन्तरम् आद्यन्तौ टकितौ टित् कितौ यस्योक्तौ तस्य क्रमात् आद्यन्तावयवौ स्तः आद्यन्तौ अवयौ स्तः
आदि
प्रसक्तिः कुत्र उच्यते तस्य आदिभागे अत्र आमा ओस् रसोनध्यापनसूत्रे किमुक्तं यद् आमः वर्तते तस्य इत्युक्तं
तस्य
पदान्ते स्थितः अकारान्ताद्वा इकारान्त उकारान्त आकारान्ताद्वा अङ्गात् यः आं वर्तते तस्य नुट् आगमः भवति इत्युक्तं यदि आम् इति अत्र केन्द्रम् आम् इति आं स्थाने इत्युक्ते कुत्र इत्युक्ते नुट् इत्यत्र टकार इति संज्ञा वर्तते तस्मात् आम् इत्यस्य पूर्वे लुप् खलुप्
किमर्थं तत्र आप् आप् अस्ति आप् इत्युक्ते आक्षरं
आभन्त इति उच्यते आप् तस्य आकारान्त सर्वे आप् संज्ञा रमालता इत्यादयः सर्वे
शब्दाः
आवन्तशब्दः आकारान्तशब्दः इत्युक्ते आवन्त
यदा
आवन्ताश्च अपरः नामीषु च अधुना नामिपदे नामि नामि अजन्ताङ्गस्य दीर्घः नामि परे इति यदा नामि इति प्रत्ययः आगच्छति नाम इति नामि इत्युक्ते नाम नामि इति सप्तमी
विभक्ति
इति पूर्वनिर्देशार्थं नामि इत्युक्ते नाम इति प्रत्ययः भवति तस्य पूर्वाङ्गस्य दीर्घः रामानाम् अधुना नाने सूत्रानन्तरं रामा नाम न समाप्तं पुनः आदे अट्कुप्वाङ्गुङ्गवाय नत्वविचारं सूत्रं ह्यस्तनदिने आगतं खलु अट्कुप्वाङ्गुङ्गवायेपि रसाभ्यां वर्तते किन्तु अत्र रसाभ्यां नो समानपदे इति वर्तते
तदनन्तरं यदि मध्ये अट् वाक्यमपि आगच्छति तथापि नकारः न
रकारषकाराभ्यां परस्य नकारस्य णत्वं ज्ञानं वर्तते अन्यत्र वर्तते केवलं रेफर रेफषकारयोरेव रषाभ्यां नो समानपदे इति सूत्रं रषाभ्यां नोणः
केवलं किन्तु मध्ये यदि कवर्गः पवर्गः आगच्छति तथापि
अथ सप्तमी विभक्तिः
रामे
रामयोः रामेषु
रामेण
षट् चतुर्भ्यः इति सूत्रे तत्र षट् चतुर्शब्देन न अत्र इव नकारः आगच्छति चतुर्णाम् इति वक्तव्यं षण्णाम् इति वक्तव्यं तत्सन्दर्भे ऋषाभ्यां नो समानपदे इति प्रस्तावः तत्र सङ्ख्यावाचनावसरे अत्र तु अट्कुप्वाङ्गुं व्यवायेपि अट्कुप्वाङ्गुं व्यवायेपि तस्य अर्थः ज्ञायते खलु
स्मृतो
वर्तते अट् कवर्ग पवर्गाभ्यां व्यस्ताभ्यां समस्ताभ्यां वा व्यवहितस्य नकारस्य णकारः भवति अट्कुप्वाङ्गुं व्यवायेपि
अयवर्ट्
अट् इति तत्र अट् कुप् कुप् इत्युक्ते केवलं
कूपु
कूपु चूटु चूपु इत्युक्ते कूपु कवर्ग पवर्गौ कवर्ग पवर्गौ नुम् इत्युक्ते अनुस्वारः तत्र विशेषः तत् नुम् इत्युक्ते अनुस्वार इत्येव नकार इति न आकार नुकार आङ् इति वर्तते आङ् तथा अनुस्वार
अत्र किमर्थम्
आङ् इति एकाक्षरमेव नकारेण आङ् इति क्रियते आवन्ता इति स्त्रीलिङ्गविषये आप् इत्युक्ते
संज्ञा अस्ति किल अक्षरस्य
स्त्रीसंज्ञार्थमेव कृतम् आपित्युक्ते केवलम् आकारमिति न आकारान्त स्त्रीलिङ्ग
वदामि
यदा दधी इत्युक्ते
इकारान्त स्त्रीलिङ्गशब्दाः आपित्युक्ते आबन्ता इत्युक्ते आकारान्त स्त्रीलिङ्गशब्दः एव आकारं यत्र वर्तते तत् इति न आङ् इत्युक्ते आकारमात्
आप् इत्युक्ते नदी एव संज्ञा आकारान्त स्त्रीलिङ्गशब्दानां समूहः अतः गोपादत्तागच्छति
कुत्र किम् अभवत् रामाणाम् इत्यत्र सूत्रेण रामाणां रामाणां रामे
इति
वर्तते राम इ
लशक्तद्वितीयमध्ये
लशक्तद्वितीय प्रत्यय न प्रत्ययाद्यौ लशकवर्गः इतः स्युः दशकोतद्युते सूत्रेण नकारस्य
चुटु
लोपः चुटु चकारटवर्ग तस्य अत्र लशकोतद्युते प्रत्ययाद्यौ प्रत्ययस्य आदिभागे स्थितौ लशक लशकवर्ग इति कप् भवति तदा ककारस्य रूपः भवति एवं लश लवर्ग पूर्वम् आगतं
ल इति केवलं लकारः केवलं शकारः अथवा कवर्गः
कवर्ग लश कवर्ग लकारस्य शकारस्य शस् इत्यत्र आगतं द्वितीयविभक्ति बहुवचनसन्दर्भे इदमेव सूत्रं तत्र
दशकसूत्रेण नकारस्य
गुण आद् गुण आदद्दला वैत्य आद् गुण यद्भवति तत् गुण आद् गुण
ಭಲೆ
ರಾಮಕಾರಸ್ಥಾನೆ ರಾಮೆ रामयोः
समानं
यथा ओषिका ओषिका
समानं
समानं
रमेशु
राम
सुप्
सुप् अन्ते
सु
राम
बहु सुप्
सुप् बहुवचने चलेति सप्तमी भूतौ बहुवचने चले अतः सुपस्य पकारस्य हलन्त्यं हलन्त्येन लोभः हलन्त्यं हलन्त्यं लोभः सु तदा राम तिष्ठते रामा सु इति बहुवचने झल्ये बहु अत्र पुत्र आगतं
पूर्वं अपि आगतं बहुवचने
झल्ये पूर्वं सप्तमे विभक्तौ आगतं पञ्चमे विभक्ति बहुवचने
अत्र राम सु अस्ति किल तत्र किमर्थं उपदेशे आचरणमस्ति भूत्वा उकारः न गच्छति
कथं रामसु इत्यत्र
अत्र रामसु अस्ति अत्र उकारः किमर्थं न गच्छति उपदेशे आचरणमस्ति किमर्थं
तत्र विधानम् अपेक्ष्य विधानमपेक्ष्य उपदेश अजुनासिक इति प्रतिज्ञानासिक्या पाणिनीयाः इति तत्रैव उच्यते तत्र परिहारः एवं वर्तते यद्यत्र अपेक्षितम् उकारस्य अपेक्षा वर्तते तर्हि तस्य एवं चेत् हलन्त्यमिति सर्वत्र अन्त्याक्षरे भवान् इत्यत्र नकारस्य लोपः अनन्त्यम् इति भवेत् भव इत्येव उक्तं किमर्थं त्वं भवान् इत्युक्ते भवा भव इति मां वदति अनन्त्यं तव नकारस्य
लोपः पकारस्य लोपः जानीमः किन्तु उकारस्य
अपेक्षा अपेक्षाम् अवलम्ब्य
परन्तु
उपदेशे इत्येव उच्यते उपदेशे अन्त्यं हल्लित्स्या उपदेश इत्येव तत्र प्रयोगः तत्रापि वर्तते उपदेशे अजुन्नासिक इत्यत्र सूत्रे एव उपदेशशब्दः वर्तते हलन्त्यम् इत्यत्र वृत्तौ उपदेशशब्दः एव वर्तते उपदेशे अन्त्यं हल्लित्स्यात् उपदेशे अजुन्नासिक इति प्रतिज्ञानुनासिक्या पाणिनीयाः अनुनासिकं वा अननुनासिकं वा इति निर्णयः तेषामस्ति वर्तते तस्य अननुनासिकम् इदम् इति अपेक्षया अस्य उकारस्य अपेक्षा वर्तते रामेषु इति उत्तमम् अपेक्षितम् अतः तस्य निषेधः न भवति रामेषु इति प्रयोगे वर्तते खलु प्रथमं भाषा तदनन्तरं व्याकरणं व्याकरणानन्तरं न भाषायाः उत्पत्तिः रामेषु इति सर्वत्र वर्तते रामेषु इति कथं भवति इत्युक्ते व्याकरणं प्रथमं लक्ष्यं प्रथमं लक्षणं तदनन्तरं लक्ष्यस्य एव अभावः कथं लक्षणं क्रियते लक्षणं कथं क्रियते शासनाधिपत्वं घोरलक्षणम् इति तर्कशास्त्रे उच्यते गङ्गेतु खलु अत्र चर्म वर्तते खलु गवां गवाम् अत्र वर्तते तदेव शासना इति संस्कृतभाषायां शासना इति अस्य नाम चेत् स्नात्मादिमत्वं घोरलक्षणं गन्धवती पृथिवी पृथिव्याः किं लक्षणं गन्धवती पृथिवी यत्र यत्र गन्धः वर्तते तत्र पृथिवीत्वं वर्तते यदि प्रथमं पृथिवीरेव नास्ति तर्हि गन्धवत्वम् इति कथं लक्षणं भवति अतः प्रथमं भाषा रामेषु इति वर्तते तत्र रामेषु इति कथं कर्तुं भवति नो चेत् सर्वत्रापि एवमेव भवेत् खलु सर्वत्रापि अस्माभिः अनन्तरम् इति सूत्रव्यापारः न तथा शक्य
अनन्तरम् अन्यदेकमपि अस्ति खलु उपदेशे अच्च अनुनासिके यदि इति उच्चारणं भवति चेत् एव
तत्र इति न इति इत्येव तदर्थमेव उक्तं प्रतिज्ञानुनासिक्या पाणि तत्रैव उक्तं तस्य ये पूर्वम् उपदेष्टारः भवन्ति मुनित्रयं नमस्कृत्य मुनित्रयं ये पतञ्जलिः कात्यायनः पाणिनिः वर्तन्ते तैरेव ज्ञातं तैः यत्र यत्र अत्र लोपः न भवति इत्युच्यते तत्र न भवति अर्थात् अत्र अनुनासिकम् इत्युच्यते अनुनासिकम् अनुनासिकमिति उच्यते तत्र किम् अन्यत् किमपि नास्ति अन्यत् किमपि नास्ति एवमेव अतः एव तत्र लिखितं प्रतिज्ञानुनासिक्या पाणिनीया
इति अनुनासिकम्
केवलं प्रयोगादेव तस्य ज्ञानं प्रयोगादेव
पूर्वं तत् स्यात्
प्रायः ह्यस्तनदिने उक्तं खल पूर्वं यदा ग्रन्थादि रचना नासीत् केवलं मौखिकतया उच्यन्ते स्म इत्यादि प्रयोगः भवेत् अधुना नास्ति अत एव तत्र प्रकरणग्रन्थकारैः प्रतिज्ञाननाशिक्याः पाणिनीयाः केव पाणिनीने उक्तं पाणिनीयाः सर्वे तत्र भर्तृहरि वर्तते कैयटः वर्तते अनेके महात्मानः वर्तन्ते
अतः
अतः तत्र उकारस्य उपदेशेन नास्ति इति सूत्रप्रवृत्तिः नास्ति तदनन्तरं रामासु इत्युक्ते आदेशप्रत्ययोः रामासु इति तत्र दीर्घः कर्तव्यः खलु बहुवचने रामासु
इत्यन्ते
रामसु बहुवचने सूत्रेण बहुवचने सूत्रेण रा मे सु रामेषु इति स्थिते आदेशप्रत्ययोः इण् कुभ्यां परस्य इण् इण् तत्र अकारं परित्यज्य युण् रुलृक् इति इण् रुलृक् एवं अयौ छयवर् लण् पर्यन्तम् इण् इ प्रथम माहेश्वरसूत्रे प्रथमसूत्रे इकारादारभ्य प्रथमसूत्रे अयुण् इत्यत्र इकारादारभ्य लण् पर्यन्तम्
इण्
इण् कुभ्यां कु इत् कु कवर्ग इण् अक्षरस्य कवर्गस्य
परस्य कवर्गः आगच्छति इण् मध्ये एव कवर्गः
आगच्छति
नागच्छति
लण्
तदनन्तरं वर्तते लकार एक एव व्यञ्जनं तत्र आगच्छति ल मात्र व्यञ्जने इण् इत्यत्र लकारमात्र अन्ये सर्वे अपि स्वराः एव व्यञ्जनं लकारमात्र ऐं रुलृ एवं अयौ अयवरट् ओ अत्रैव इण् अत्रैव अभवत् अत्रैव परेणनकारेण सर्वत्र सर्वत्र पूर्वनकारे इन् इव मातु इकार उकाराभ्यां कवर्गस्य च परस्य पदान्तस्य आदेशस्य प्रत्यय अवयवस्य पदान्तः अपदान्तस्य पदत्वम् अधुनापि रामस्य न सिद्धम् अतः एतत्पर्यन्तं रामः अपदम् अपदान्ते स्थितं सु तस्य अवयवस्य सु इति यत्र वर्तते तस्य अवयवस्य मूर्धन्यादेशः अधुना प्रश्नः उकारस्य वा सकारस्य वा इति तस्य तुल्यास्य प्रयत्नं सवर्णम् इति संज्ञाप्रकरणे निश्चितं वर्तते अस्य मूर्धन्यादेशः मूर्धन्य इत्युक्ते ऋटुरषाणां मूर्धा ऋटु रषा रु टवर्ग रषा इति अत्र सकारः वर्तते उकारः वर्तते उकारस्य मूर्धासम्बन्धः एव नास्ति सकारस्य वर्तते सकारस्य समीपस्थः वर्णः कः शकार एव मूर्धा इति रा भवतु रामेषु रामेषु इत्युक्ते रामेरु इति किमर्थं न भवेत् रामेरु इति रकारस्यापि मूर्धन्यत्वं वर्तते खलु किन्तु तस्य ಊಷ್ಮ ಅಂತರ್ಬಹಿ ಪ್ರಯತ್ನ ದ್ವಯ ವರ್ತದೆ ಖಲು ಸರ್ವ ಪ್ರಯತ್ನೇಶು ಸಕಾರಸ್ಯ ಷಕಾರ ಏವ ಮೂರ್ಧನ್ಯತ್ವೇನ ಸಮೀಪಸ್ಥ
ಅತ್ರ ಅತ್ರ ಇಣ್ಣ ಕುಪ್ ನಾಸ್ತಿ ಏವ ಖಲು ಕುತ್ರ ಇಣ್ಣ ಕುಪ್ ಅಸ್ತಿ
ಪೂರ್ವ ಸೂತ್ರ
ರಾಮೇ ಸು ಇತಿ ಆಗತಂ ಇದಾನಿಂ ಇಣ್ಣ ಕುತ್ರ ಅಸ್ತಿ
ಆ ಇಣ್ಣ ಬವೋ ಚಾನೋತ್ರ ಕೇನಾಪಿ ನಾನನ್ನ ಕೇನಾಪಿ ಅಧುನಾ ಕಿಮಪಿ ಉಕ್ತಂ ತೈ ಉಣ್ಣಿತ ನಾ ಇತಿ ಅತ್ರೇವ ಪರೇಣ ನಕಾರೇಣ ಲಂಡ್ ಪರ್ಯಂತ ಗತಿ ರಾಮೇ ಇತಿ ವರ್ತತೆ ಖಲು ಏಕಾರ ಇವು ಇತ್ಯೇವ ನ ಪ್ರಥಮ ಮಯ ಉಕ್ತಂ ಲಂಡ್ ಪರ್ಯಂತ ಇತಿ ಮಧ್ಯೆ ಕೇನಾಪಿ ಹಾ ಇತಿ
ಆದೇಶ ಪ್ರತ್ಯಯೋ ಏಕ ಸೂತ್ರಮಸ್ತಿ ತಸ್ಯ ವಿಸ್ತಾರ ಕುಭ್ಯಾಂ ಚ
ತದೇವ
ಕಹ ಸಹ ವಿಸ್ತಾರ ಪುನಃ ಬರಬಹುದು
ಇಣ್ ಇತ್ಯುಕ್ತೆ ಅತ್ರ ಇಣ್ ಇತ್ಯುಕ್ತೆ ಕೇವಲ ಇವುಣ್ ಇತಿ ನಾ ಅತ್ರೇವ ಅಣ್ ಪರಿಣಾಮ ಕಾರಣ ಮಯ ಉಕ್ತಂ ಲಕಾರ ಪರ್ಯಂತಂ ಲಕಾರ ಮಾತ್ರ ವರ್ತತೆ ವ್ಯಂಜನ ಇತ್ಯಾದಿ ಸರ್ವಂ ಉಕ್ತಂ ತನ್ಮಧ್ಯೆ ಕೇನಾಪಿ ಅತ್ರ
ಮಧ್ಯೆ ತತ್ಸತ್ಯಂ ಕಿಂತು ತದ ಇನ್ ಕುಭ್ಯಾಂ ಇದಿ ಅನುವೃತ್ತಿ ಪೂರ್ವ ಸೂತ್ರ
ಸಂಪೂರ್ಣ
ಅನುವೃತ್ತಿ ವದಂತು ತದ ಇನ್ ಕುಭ್ಯಾಂ ಚ
ತಸ್ಯ ಇನ್ ಕುಭ್ಯಾಂ ಪರಸ್ಯ ಇತ್ಯ ಅವಶ್ಯಕತಾ ನಾಸ್ತಿ ಆದೇಶ ಪ್ರತ್ಯಯೋ ಇತಿ ವರ್ತತೆ ತಸ್ಮಾತ್ ಪದಾಂತಸ್ಯ
ತರ್ಹಿ ಇನ್ ಕುಭ್ಯಾಂ ಪದಾಂತಸ್ಯ
ಪ್ರತ್ಯಯ ಆದೇಶ ಪ್ರತ್ಯಯಸ್ಯ ಮೂರ್ಧನ್ಯಾದೇಶ ಸಕಾರಸ್ತು ವರ್ತತೆ ಅತ್ರ ಈಶದ್ವಿವೃತಸ್ಯ ಸಸ್ಯ ತಾದೃಶ ಏವ ಶಃ ಇನ್ನಿತಿ ಏಕಾರ ವರ್ತತೆ ರಾಮೇ ಇತಿ ಏಕಾರ ಅನಂತರಂ ಸುಕಾರ ವರ್ತತೆ ತಸ್ಯ ಅತ್ರೈವ ಇಣ್ ಪರೇಣ ತತ್ರ ಸಂಜ್ಞಾ ಪ್ರಕರಣ ಯದಿ ಸಿದ್ಧಾ ಭವತಿ ತದಾ ನೋಚದೇವೇ ಭವತಿ ಅತ್ರೈವ ಇಣ್ ಪರೇಣ ನಕಾರೇಣ ಇತ್ಯಾದಿ ತತ್ರ ಲಿಖಿತಂ ಕೇವಲಂ ಏಕಸ್ಮಿನ್ನೇವ ಸಂದರ್ಭೇ ಇಣ್ ಇತ್ಯತ್ರ ಇವು ಇತಿ ಗ್ರಹಣ ಅನ್ಯತ್ರ ಸರ್ವತ್ರಾಪಿ ಪರೇಣ ನಕಾರೇಣ ಸಂಜ್ಞಾ ಪ್ರಕರಣ ತತ್ರ ಮಾತ್ರ ಇಣ್ ಮಾತ್ರ ಅನ್ಯತ್ರ ಸರ್ವತ್ರಾಪಿ ಪರಿಣಾಮ ಕಾರಣ ಸೂತ್ರ ಅಧಃ ಶೋಕೋಪಿ ವರ್ತತೆ ಪೂರ್ವೇಣೈವ ಗ್ರಹಃ ಸರ್ವೇ ಪರೇಣೈವ ಗ್ರಹಃ
ಪುರುಷ ಸಂಖ್ಯಾ ಕ
ತಸ್ಯ
ಪುರುಷ ಸಂಖ್ಯಾ ಕ ಅತ್ರ
ಕ್ಯಾ ಪುರುಷ
ಸಂಖ್ಯಾ ನನ್ನ ಯತ್ ಸಂಖ್ಯಾ ಪ್ರಕರಣ ಉತ್ತರ
ಪುರುಷ ಸಂಖ್ಯಾ ಪುರುಷ ಸಂಖ್ಯಾ
ಪಿನ್ ನಂಬರ್
ಚತುರ್ದಶ
ಚತುರ್ದಶ
ಋತೆ ಅನುದಿತ್ ಸವರ್ಣಸ್ಯೇತೇದೇಕಂ ಪರೇಣತು
ಅತ್ರೇಣೈವ ಪರೇಣ ಅತ್ರ ಏವ ಅತ್ರೈವಾಣ ಪರೇಣ ನಕಾರೇಣ ಅತ್ರ ಏವ
ಅನುದಿತ್ ಸವರ್ಣಸ್ಯ ಚ ಪ್ರತ್ಯಯ
ಅತ್ರ ಏವ
ತೀದೇವಿದೇತಿ ಪ್ರತ್ಯಯಮಾನ ಅನುದಿತ್ಯ ಸವರ್ಣಸ್ಯ ಅತ್ರೈವ ಅನ್ ಪರೇಣ ನಕಾರೇಣ ಅಧುನಾ ತ್ರ ಏಕಾರ ವರ್ತತೆ ಏಕಾರಾನಂತರ ಯಾಸು ವರ್ತತೆ ತಸ್ಯ ಮೂರ್ಧನ್ಯಾದೇಶ
ತಥಾ ಹಲ್ ಯದಾ ವದಂತಿ
ಹಲ್ಲಪ್ಪಿ ಬರ್ತದೆ. ಅಲಂತ್ಯಂ ಇತಿ ಇದು ಸೂತ್ರದ್ವಯ ಬರ್ತದೆ. ಸುಲಭ ಸಿದ್ಧಾಂತ ಕುಮಂತನ್ನ ಬರ್ತದೆ, ಸಿದ್ಧಾಂತ ಕುಮಂತ ಬರ್ತದೆ. ಅಲಂತ್ಯಂ ಇತಿ ಸೂತ್ರದ್ವಯ ಏಕಂ ಕೇವಲ ಹಲ್ ಅಂತ್ಯ ಚತುರ್ ಚತುರ್ದಶ ಚಾತುರ್ದಶ ಸೂತ್ರ ಅನ್ಯತ್ ಸರ್ವ ಹಲ್ ಇತಿ ಪ್ರತ್ಯಾಹಾರ ತದಪಿ ಉಚ್ಯತೆ. ಅಲಂತ್ಯಂ ಇತಿ ಸೂತ್ರ ವರ್ತದೆ ತತ್ರ ಮಾತ್ರ ತತ್ರ ಮಾತ್ರ ಹಲ್ ಇತಿ ಅಂತ್ಯಂ ಹಲ್
ಅಂತ್ಯಂ ಹಲ್
ಅಲಂತ್ಯಂ ಇತಿ ಸೂತ್ರ ಇತ್ಸಂಜ್ಞಾ ವಿಧಾಯಕಂ ಏಕಂ ಸೂತ್ರ ವರ್ತದೆ. ಅನ್ಯತ್ ಹಲ್ ಇತಿ ತದಪಿ ಇತ್ಸಂಜ್ಞಾ ಕಾರಣಮೇವ ಕೇವಲ ಹಲ್ ಇತ್ಯಸ್ಯೇವ ಅಂತ್ಯಸ್ಯ ಅಲಂತ್ಯಂ ಮಾತ್ರ ಸೂತ್ರ ತಸ್ಮಿನ್ ಏಕಸೂತ್ರೇವ ತತ್ ಹಲ್ ಅನ್ಯತ್ರ ಸರ್ವತ್ರ ಹಲ್ ಇತ್ಯುಕ್ತೆ ಹಯವನ್ ಹಯವಂತಃ ತತ್ರ ತಥಾಪಿ ವಿಮರ್ಶಕೇ ಅಸ್ಮ ವಯಂ ಹಕಾರ ತತ್ರ ವಿಸರ್ಗಸ್ಥಾನೀಯ ಆಹ ಇತಿ ಭವೇತ್ ಅತ ಏವ ಪಾಣಿನಿನಾ ತತ್ರ ಹಕಾರ ನಿವೇಶಿತ ಇತ್ಯಾದಿ ಯಥಾ ಅನುಸ್ವಾರಸ್ಯತೋ ಮಂಜನಾಮ ಇತಿ ಅನುನಾಸಿಕೆ ಪೂರ್ಯತೆ ತದರ್ಥಂ ಹಕಾರ ವಿಸರ್ಗಾರ್ಥಂ ಅಂತ್ಯನಿವೇಶಿತ ಭವೇತ್ ಇತಿ ಕಿಂತು ಅತ್ರ ಪಾಣಿನೀಯಾ ತನ್ನ ಮನ್ಯತೆ ಯಥಾ ಪಾಣಿನಿ ಸರ್ವೇರತಿ ಅಲ್ಲಿಕ್ಕೆ ಏಕಸ್ಯ ಅಕ್ಷರಸ್ಯ ಅಲಂತ್ಯಂ ಸೂತ್ರೇ ಪರಿವಸ್ಯ ಕುತ್ರಾಪಿ ತಸ್ಯ ಪ್ರಯೋಗಾರ್ಥ ನಾಶ ಮೂರ್ಧನ್ಯಾದೇಶ ರಾಮೆ ಸು ರಾಮೆ ಇತಿ ಏ ವರ್ತದೆ ಇಣ್ ಇತ್ಯುಕ್ತೆ ಲಟ್ ಪರ್ಯಂತ ಸು ಭವತಿ ಶು
ಮೂರ್ಧನ್ಯ
ಶೂರೇವ ಕಿಮರ್ಥಂ ಕಿಮರ್ಥಂ ಚಪ್ಪಲೇನ ಇತಿ ನ ಪ್ರಶ್ನವು ಅಥವಾ ಮೂರ್ಧನ್ಯಾದೇಶ ಶೂರೇವ ಮೂರ್ಧನ್ಯಾದೇಶ ತತ್ರ ತುಲ್ಯಾಸ್ಯ ಪ್ರಯತ್ನಂ ಸವರ್ಣಂ ಇತಿ ಸವರ್ಣಂ ಮಿಳಿತ್ವಾ ಊಷ್ಮಾಕ್ಷರತ್ವಾ ಅತ್ರ ವಿವೃತಂ ಇತಿ ಕೇವಲಂ ಗೀತಂ ಕೇವಲ ವಿವೃತ ಮಾತ್ರಮೇವ ನ ಊಷ್ಮತ್ವಂ ಊಷ್ಮಾಕ್ಷರತ್ವಮಪಿ ತತ್ರ ಆಗಚ್ಛತಿ ವಿವೃತತ್ವಂ ಇತ್ಯಾದಿ
ಸೋಮವಾರ ಭವಾನ್ ಯತ್ ಅಸ್ಮಾಕಂ ಏನಂತೂ ಕ್ಲಿಷ್ಟತರ ಆಸೀತ್.